सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः। भगिनी एकवारं स्मारयतु।
येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन दौता गिरः पुंसां विमलैशब्दवारिभिः तमश्च ज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्।
धन्यवादाः भगिनी। अष्टाध्याय्यां प्रत्ययः प्रक्रिया च समग्रदृष्टिः इति विषयः पठ्यमानः अस्ति। एतं विषयम् अधिकृत्य अभ्यासः वर्तते। विषयस्य अवगमनार्थम् अभ्यासः अपेक्षितः। अभ्यासः पूर्वस्मिन् वर्गे एव आरब्धः। अद्य तस्यानुवर्तनं भवति। गते वर्गे नीधातोः रूपाणि साधितवन्तः। नीधातुतः सार्वधातुकप्रक्रियाम् उपयुज्य कानिचन रूपाणि, आर्धधातुकप्रक्रियाम् उपयुज्य कानिचन आर्धधातुककृदन्तरूपाणि साधितवन्तः। अद्य अपरेषां धातूनां प्रसङ्गे चिन्तनं कुर्मः। तत्र सूचना दीयते कानि कानि रूपाणि साधनीयानि इति। करपत्रे सूचना दीयते प्रथमतया प्रक्रिया कीदृशी अस्ति, प्रत्ययस्य स्वभावः कः, धातुः कीदृशः, एतत् सर्वं स्पष्टतया वक्तव्यम्। प्रत्ययस्य स्वभावम् अनुसृत्य, प्रत्ययस्य स्वभावम् आश्रित्य अङ्गकार्याणि भवन्ति इत्यतः प्रत्ययस्य स्वभावः कीदृशः इति ज्ञातव्यम्। अस्मिन् करपत्रे स्वादिगणीयची धातोः रूपाणि साधयन्तु इति दत्तमस्ति। ची धातोः प्रसङ्गे वक्तव्यम्। ची धातुः उभयपदी धातुः। चिण् च वर्गीय अन्तिम अनुनासिकव्यञ्जनं ची धातोः अन्ते इत्संज्ञकवर्णः भूत्वा तत्र अस्ति। अतः धातुः उभयपदी धातुः। किं वक्तव्यं? लट्लकार प्रथमपुरुष एकवचनरूपम् अपि च द्विवचनरूपं वक्तव्यम्। नरेश् महोदय, भवान् प्रयत्नं करोतु।
अत्र चि धातुः अस्ति, अपि च प्रत्यय प्रथम किमस्ति? प्रत्यय
आदौ चि धातोः लट्लकार प्रथमपुरुष एकवचनरूपं साधनीयम्। चिनोति इति रूपम् अस्ति। स्वादिगणस्य संख्या का जानाति वा?
स्वादिगणे नु अस्ति, श्नु
पञ्चमः गणः इति
श्नु अस्ति।
श्नु अस्ति, उत्तमम्। अत्र लट्लकार प्रथमपुरुष एकवचनम् अपि च द्विवचनं साधयन्तु इति लिखितम् अस्ति। तत्र प्रक्रिया कीदृशी अस्ति?
अस्तु, प्रथम तु धातुः अस्ति, चि धातुः इगन्तधातुः अस्ति, अपि च एकः अच् वर्णः अस्ति, अतः एकाच् अनुदात ततः धातुः अनिट् अस्ति। अहं चिन्तयामि
लट्लकाररूपसिद्धिः इति कथनेन प्रक्रिया कीदृशी अस्ति, आर्धधातुकप्रक्रिया वा सार्वधातुकप्रक्रिया वा, तत्र प्रक्रिया कीदृशी?
आम्, अत्र तिङ् प्रत्यययोजनं, तत्र प्रक्रिया तु सार्वधातुको अस्ति, तिङ् प्रत्यय सार्वधातुकः अस्ति।
लट्लकारसिद्धिः सार्वधातुकप्रक्रियायाम् अन्तर्भूतमस्ति।
सार्वधातुक अस्ति चेत् तत्र कर्तरि शप् आयाति।
सोपानेन गच्छामः। धातुः चिञ् अस्ति इत्युक्ते तत्र चवर्गीय अन्तिम अनुनासिकव्यञ्जनम् अस्ति, अन्ते अनुबन्धलोपं करोतु।
तत् नकारः गच्छति चि स्थीयते, नकारः गच्छति चेत् अत्र अनुदात्तनित् तत् अस्ति चेत् उभयपदी अस्ति,
न न अनुदात्तनित आत्मनेपदम्
आत्मनेपदम् अस्ति. अस्तु अस्तु. चिन् चिन् तत्र तु चिन् चकारस्य अन्तिम वर्ण अस्ति, अपि च
अत्र तु लौकिकधातुः अस्ति. उपदेशावस्थायां चिञ् अस्ति इत्युक्ते चवर्गीय अन्तिम अनुनासिकवर्णम् वदतु.
तत् अस्ति चेत् उभयपदी अस्ति, नकारस्य इत्संज्ञा भवति चेत् उभयपदी अस्ति.
कदा परस्मैपदीप्रत्ययाः आयान्ति, कदा आत्मनेपदप्रत्ययाः आयान्ति?
कर्त्रर्थे आत्मनेपदी आयाति, कर्त्रर्थे नास्ति चेत् तत्र परस्मैपदी आयाति.
उत्तमं. सार्वधातुकप्रक्रिया, अतः इडागमविचारः अनावश्यकः. अग्रे गत्वा कानिचन आर्धधातुकरूपाणि अपि साधयामः. अतः इडागमविचारः करणीयः. चि धातोः प्रसङ्गे धातुः अनिट् खलु?
आम् अनिट् अस्ति. तदा प्रत्यय इडानुकूल अस्ति चेत् अपि तत्र इडागम न भवति.
उत्तमम्. आदौ लट्लकार प्रथमपुरुष एकवचनरूपं परस्मैपदिरूपं साधयतु.
तत्र यथा कर्तरि शप् अस्ति चेत् तत्र शप् विकर शप् प्रबाध्य विकरण मध्ये आगत, अतः चि योग श्नु योग तिङ्.
तस्मात् पूर्वं कानिचन सोपानानि सन्ति खलु. चि इति लौकिकधातुः, अस्माकं विवक्षा तु लट्लकारविवक्षा अस्ति. लट्लकारविवक्षायां प्रथमपुरुषे एकवचनरूपं साधयामः, अपि च परस्मैपदरूपं साधयामः. तत्र लट्लकारविवक्षा अस्ति इत्यतः चि योगः लट् इति स्थितिः अस्ति. लट् इत्यस्मिन् वदतु,
लस्य स्थाने तिप् आयाति.
किमर्थं तिप्पेव आयाति?
प्रथम तु परस्मैपदी तिप् आयाति, अनन्तरं तत्र आत्मनेपदी अपि च अनन्तरम् आयाति. परन्तु प्रथम तु अत्र उभयपदी अस्ति चेत् प्रथम तिप् आयाति. लट्लकारे प्रथम पुरुष एकवचनं रूपं तिप् अस्ति.
उत्तमं. तदर्थं सूत्राणि सन्ति खलु. प्रथमपुरुष एकवचनरूपं साधयामः. तत्र इतोपि त्रीणि सूत्राणि वयं पूर्वं पठितवन्तः. शेषे प्रथमः इति एकं सूत्रं वयं पठितवन्तः. किमर्थं तिप्रत्ययम् एव योजयामः इति प्रश्ने सति, अस्माकं विवक्षा तु प्रथमपुरुष एकवचनरूपसिद्धिः इत्यतः तिप्रत्ययः. अष्टादश तिङ्प्रत्ययाः सन्ति चेदपि वयं तिप् एव स्वीकुर्मः. तिप् एव किमर्थं स्वीकुर्मः इति प्रश्ने सति, तत्र त्रीणि सूत्राणि अस्माभिः स्मर्तव्यानि. युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः इति एकं सूत्रमस्ति. अस्मद्युत्तमः इति अन्यत् सूत्रमस्ति. एतत् सूत्रद्वयं विहाय अन्ये प्रत्ययाः प्रथमपुरुषप्रत्ययाः भवन्ति. इत्युक्ते शेषप्रथमः इति सूत्रेण तिप् तस् झि एते प्रत्ययाः प्रथमपुरुषप्रत्ययाः भवन्ति खलु. यद्यपि तत्र अष्टादशप्रत्ययाः सन्ति, किमर्थं तिप् एव स्वीकुर्मः इति प्रश्ने सति, तत्र शेषप्रथमः इति सूत्रेण तिप् प्रत्ययं स्वीकुर्मः. शेषे इति कथनेन
तत् मध्यमपुरुषः नास्ति, अपि च युष्मद् नास्ति, अस्मद् नास्ति, शेषे प्रथमः अस्ति.
उत्तमम्. अस्मद्युत्तमः इति सूत्रमपि अस्ति खलु, एतौ द्वौ विहाय अन्यप्रत्ययाः प्रथमपुरुषप्रत्ययाः भवन्ति शेषे प्रथमः इति सूत्रेण. इत्युक्ते एतौ द्वौ विहाय अन्येषां शब्दानां प्रसङ्गे
सर्वे प्रथमः अस्ति.
अपि च ची धातुतः तिप् प्रत्ययं योजयामः. तिप् इति प्रत्ययः कीदृशः?
तिप् पित् अस्ति, तत्र पकारस्य इत् संज्ञा भवति, अतः सार्वधातुक आर्धधातुकयोः तत्र गुणकार्यं भवति.
उत्तमम्. तिप् प्रत्ययस्य स्वभावः कः इति प्रश्ने सति, तिप् प्रत्ययः कर्त्रार्थकः अपि च सार्वधातुकः. ची धातोः परं कर्त्रार्थक सार्वधातुक तिप् प्रत्ययः अस्ति इत्यतः कर्तरि शप् सूत्रेण शप् आगन्तुं शक्नोति, किन्तु अयं धातुः स्वादिगणे अस्ति इति कारणतः कर्तरि शप् सूत्रं प्रबाध्य वदतु वदतु.
कर्तृ शप् अस्ति चेत् शप् आयाति, शप् प्रबाध्य श्नु स्वादिगणे श्नु अस्ति, अतः श्नु आयाति. श्नु तत्र शकारस्य इत् संज्ञा भवति, नु स्थीयते, अतः चि योग नु योग ति अस्ति.
उत्तमं. श्नु विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यम् अस्ति वा?
श्नु अस्ति चेत् अङ्गकार्यं तु चि अस्ति.
अत्र चि इति धातुरूपी अङ्गमस्ति. चि इति एकः धातुः, धातुरूपी अत्र अङ्गमस्ति. अङ्गमित्युक्ते प्रत्ययात् पूर्वं यावदस्ति तत् सर्वम् अङ्गम् इति वदामः. अत्र श्नु इति प्रत्ययं निमित्तीकृत्य चि इति धातुरूपी अङ्गे किमपि कार्यं भवति वा अङ्गकार्यम्?
आम् भवति.
श्नु प्रत्ययं निमित्तीकृत्य अङ्गकार्यम् अस्ति वा?
न, श्नु कृते नास्ति. श्नु तु पित् नास्ति. पित् नास्ति चेत् तत्र गुणकार्यं न भवति.
उत्तमं. श्नु इति प्रत्ययं निमित्तीकृत्य चि इति धातुरूपी अङ्गे अङ्गकार्यं न भवति. किमर्थं चेत् सः प्रत्ययः षित् प्रत्ययः, किन्तु अपित्वमस्ति. अपित्वात् सार्वधातुकम् अपित् इति अतिदेशसूत्रेण श्नु प्रत्ययः नित्वत् प्रवर्तते. नित्वत् प्रवर्तते चेत्
गुणकार्यम् अपि च वृद्धिकार्यं न भवति.
उत्तमं. क्निति च सूत्रेण गुणनिषेधः भवति. इत्युक्ते श्नु विकरणप्रत्ययं निमित्तीकृत्य चि इति धातुरूपी अङ्गे अङ्गकार्यं नास्ति. इदानीं वदतु अग्रे किं भवति.
अग्रे तत्र अङ्ग चि अस्ति, चि योग नु चिनु भवति, अपि च योग तिप् अस्ति. तिप् तत्तु पित् अस्ति, पकारस्य इत् संज्ञा भवति, अतः अङ्गं ते कृते अङ्गं तु चिनु अस्ति, अतः चिनु अजन्त इगन्त अङ्गमस्ति, अतः तत्र गुणकार्यं भवति. चिनु चिनो भवति, चिनो योगति चिनोति भवति.
उत्तमम्. अत्र तिप् प्रत्ययं निमित्तीकृत्य चिनु इति इगन्तमङ्गमस्ति इत्यतः अङ्गकार्यम् उकारस्य गुणसंज्ञकवर्णः ओकारः. चिनु इति अङ्गे तिप्रत्ययं निमित्तीकृत्य अङ्गकार्यं गुणकार्यं भूत्वा चिनो भवति. पश्चात् वर्णमेलनेन चिनोति इति रूपं सिद्ध्यति. प्रथमपुरुष एकवचनरूपम्. इदानीं प्रथमपुरुष द्विवचनरूपं साधयतु.
आम्, तत्र प्रथम तु चि अस्ति, चि योग शप् प्रबाद्य श्नु अस्ति, शकारस्य इत्संज्ञा भवति, चि योग नु अस्ति. चि योग नु अपि च योग तस् अस्ति, तत्र तस् पित् नास्ति, अतः कोऽपि गुणकार्यं न भवति.
तस् प्रत्ययस्य स्वभावः कः? तस्मिन् अनुबन्धवर्णाः सन्ति वा? तत्र चिन्तनं किम् अस्ति? तस् प्रत्ययस्य प्रसङ्गे वदतु.
तस् तत्र विभक्ति अस्ति चेत् इत्संज्ञा न भवति. विभक्तौ तु स्माः,
न विभक्तौ तु स्माः,
न विभक्तौ तु स्माः. परन्तु सकारस्य विसर्गः भवति.
उत्तमम्. अत्र सकारः अन्ते अस्ति इति कारणतः हलन्त्यं सूत्रेण तस्य संज्ञा भवति वा इति चिन्तनीयं, किन्तु न भवति. किमर्थं न भवति इति प्रश्ने सति न विभक्तौ तु स्माः इति सूत्रेण तस् इति प्रत्ययस्य अन्ते स्थितस्य सकारस्य इति संज्ञा न भवति. किमर्थं चेत् विभक्तिश्च सूत्रेण तिङ्प्रत्ययाः सर्वे विभक्तिसंज्ञकाः भवन्ति. विभक्तिसंज्ञकप्रत्ययस्य सकारस्य इति संज्ञा न भवति. इत्यतः तस् इति द्विवचनप्रत्यये स्थितस्य सकारस्य अपगमनं न भवति, अथवा सकारः तिष्ठति. इदानीम् अग्रे कार्याणि वदतु.
तदा तत्तु वक्तुं न शक्नोति. सकारस्य स्थाने विसर्ग आगता, अतः चिनुत्तः भवति द्विवचने.
उत्तमं. चिनोति इति रूपं यदा वयं साधितवन्तः तादृशरीत्या एव अत्रापि किञ्चित् कालपर्यन्तं चिन्तनं करणीयम्. इत्युक्ते चि धातोः परं श्नु इति विकरणप्रत्ययः, गणविकरणप्रत्ययः आयाति. किमर्थं चेत् चि धातुः स्वादिगणे अस्ति. स्वादिगणे अस्ति इति कारणतः कर्तरीषप् सूत्रं प्रबाध्य स्वादिभ्यः श्नुः सूत्रेण श्नुविकरणप्रत्ययः आयाति. श्नुविकरणप्रत्ययस्य अपित्वात् सः प्रत्ययः नित्वत् प्रवर्तते, अतः श्नुप्रत्ययं निमित्तीकृत्य चि इति धातौ अङ्गकार्यं न भवति. अतः चिनु इति रूपं भवति. चिनुयोगः तस् वर्णमेलनेन चिनुतस् इति रूपं सिध्यति. चिनुतस् इति रूपं परिशीलयामश्चेत् चिनुतस् इत्यत्र अन्ते तिङ्प्रत्ययः अस्ति. तस् प्रत्ययः तिङ्प्रत्ययः अस्ति इति कारणतः सुप्तिङ्गन्तं पदम् इति सूत्रेण अस्य शब्दस्य पदसंज्ञा अस्ति. पदम् इति एका संज्ञा अस्ति. पदम् इति एकं नामकरणं व्याकरणे. अत्र चिनुतस् इत्यस्य पदसंज्ञा अस्ति. किमर्थं चेत् तस्य अन्ते तिङ्प्रत्ययः अस्ति. सुबन्तम् अथवा तिङ्गन्तं पदम् इति कथयितुम् अर्हः भवति. अतः अयं शब्दः पदम् इति कथयितुम् अर्हः भवति. पदसंज्ञा अस्ति इति कारणतः तत्र ससजुषोरुः इति सूत्रम् आगत्य कार्यं करोति. अन्ते स्थितस्य सकारस्य स्थाने ससजुषोरुः इति सूत्रेण रुत्वं भवति. रु आदेशः भवति. रु इति कथनेन तत्र अनुनासिक उकारः अस्ति. रु इत्यस्मिन् उपदेशजनुनासिक इत् इति सूत्रेण अनुनासिक उकारस्य इति संज्ञा भूत्वा तस्य लोपः सूत्रेण अनुनासिक उकारः अपगच्छति. तदा तत्र रूपं किम् अस्ति? चिनुतर् इति रूपम् अस्ति. अत्र रेफः अवसानावस्थायाम् अस्ति. व्याकरणे एकं सूत्रमस्ति, विरामोवसानम् इति सूत्रमस्ति. चिनुतर् इत्यत्र रेफः अवसानावस्थायाम् अस्ति इति कारणतः करवसानयोर्विसर्जनीयः इति सूत्रेण अन्ते स्थितस्य रेफस्य स्थाने विसर्गादेशः भवति. तेन चिनुतर् इत्यस्य रूपं चिनुतः इति भवति. इदानीम् आत्मनेपदीरूपाणि साधनीयानि. चिनुते इति रूपम् अस्ति. भवान् वक्तुमिच्छति वा?
चिनुते तत्रापि चि धातुः अस्ति. श्नु शप् प्रबाध्य श्नु आयाति. चि योग श्नु अस्ति. शकारस्य इत्संज्ञा भवति चेत् चि योग नु अस्ति. अपि च आत्मनेपदी अस्ति चेत् तत्र प्रथम तु तङ् अस्ति, तत्र चिनु योग तङ्, तत्र आत्मनेपदानां तेरे तथा तत्र ते भवति तत्र पकारस्य तु संज्ञा न अस्ति अतः गुणकार्यं न भवति, चिनु ते अन्तिमरूपम् अस्ति प्रथमपुरुष लट्लकारे एकवचनं चिनु ते।
उत्तमं, चिनुते इति आत्मनेपदिरूपम् अस्ति। अत्र स्मर्तव्यः अंशः कः, ता इति प्रत्ययः अस्ति खलु आत्मनेपदधातूनां कृते, प्रथमपुरुष एकवचनप्रत्ययः ता प्रत्ययः अस्ति, ता प्रत्ययः पित् नास्ति। यद्यपि अष्टादश तिङ् प्रत्ययाः सन्ति, तेषु तिप्पु सिप्पु मिप्पु एतान् त्रीन् प्रत्ययान् विहाय अन्ये सर्वे, इत्युक्ते अन्ये पञ्चदश तिङ् प्रत्ययाः, 15 तिङ् प्रत्ययाः अपित् प्रत्ययाः, अपित् प्रत्ययाः इति कारणतः तेषाम् अपित्वात् नित्वत् व्यवहरन्ति सार्वधातुकम् अपित् इति सूत्रेण। ते पञ्चदश तिङ् प्रत्ययाः सार्वधातुकम् अपित् इति सूत्रेण नित्वत् आचरन्ति, अतः तेषां परे क्णिति च सूत्रेण गुणनिषेधः भवति। अत्रापि चिनुते इत्यत्रापि ता इति प्रत्ययः अपित् प्रत्ययः, अपि च अस्मिन्नेव प्रसङ्गे टी संज्ञा नाम किम् इत्यपि ज्ञातव्यम्। यथा महोदयेन उक्तं, टित आत्मनेपदानां टेरे इति सूत्रमस्ति, इदं सूत्रं टित् लकाराणां प्रसङ्गे एव कार्यं करोति। लट् लकारः टित् लकारः, टित् लकाराणां विषये टी संज्ञकस्य एकारादेशः भवति इति कृत्वा चिनुते इति रूपं सिद्ध्यति। तावत् पर्याप्तम्। अग्रे क्त्वान्तरूपं साधनीयं, भवान् वक्तुमिच्छति वा?
क्त्वान्तरूपं तत्र क्त्वा प्रत्ययः अस्ति, क्त्वा प्रत्ययः तु आर्धधातुकप्रत्ययः अस्ति, आर्धधातुक अस्ति चेत् तत्र आर्धधातुकस्य कस्येड् वलादेः तत् सूत्रम् आयाति। अत्र त्वा तत्र ककारस्य यत्संज्ञा भवति, त्वा स्थीयते, तत् त्वा आर्धधातुकस्य वलादेः तत्र आदौ तकारः अस्ति, तकारः अस्ति चेत् तकारः तु वलादे अस्ति, अतः तत्र इडागम अनुकूलः।
क्त्वान्तरूपसिद्धिः कीदृशी प्रक्रिया?
आर्धधातुकप्रतिक्रिया
प्रक्रिया, अत्र अर्धधातुकप्रक्रिया, अतः इडागमविचारः भवति। अर्धधातुकप्रक्रियायाम् इडागमविचारः अवश्यं करणीयः। क्त्वा प्रत्ययस्य इडनुकूलता कीदृशी अस्ति इति ज्ञातुं सूत्रद्वयं ज्ञातव्यं खलु, किमर्थं चेत् अर्धधातुककृत् प्रत्ययः, अतः वदतु।
प्रथम तु अर्धधातुकस्य वलादेः तत्र वलादेः अस्ति, अतः इडनुकूलः अस्ति। अपि च द्वितीयसूत्रम् अस्ति नेड् वशीकृति, नेड् वशीकृति तत्र त प्रत्यय वश् प्रत्याहारे नास्ति, अतः तत्र इडानुकूलः वश् प्रत्याहारे
नास्ति,
अतः इडनुकूलः अस्ति।
प्रत्ययः तु इडनुकूलः इत्युक्ते प्रत्ययः तु सेट् एव, धातोः प्रसङ्गे पूर्वम् उक्तवान्, धातोः प्रसङ्गे वदतु।
तत्तु सेट् नास्ति, अनेट् अस्ति. तत्र एकाचनुदात्त तत्र अनेट् अस्ति. प्रत्यय इडनुकूल अस्ति चेत् अपि तत्र इडागम न भवति.
उत्तमम्. अत्र एकं विधिसूत्रमपि अस्माभिः ज्ञातव्यम्. क्त्वा प्रत्ययस्य प्रसङ्गे विधिसूत्रं किम् अस्ति इत्युक्ते, समानकर्तृकयोः पूर्वकाले इति विधिसूत्रेण क्त्वा प्रत्ययस्य विधानं भवति. समानकर्तृकयोः पूर्वकाले इत्युक्ते एकः एव कर्ता क्रियाद्वयं करोति चेत् तदा पूर्वकालिकी क्रियायाः क्त्वा प्रत्ययः भवति. एकं वाक्यं वदतु क्त्वा प्रत्ययम् उपयुज्य अथवा चित्वा उपयुज्य वदतु.
अहं पुष्पं चित्वा गृहं गच्छामि.
अत्र क्रियाद्वयं किम्?
चिनोति अपि च गच्छति.
अत्र कर्ता कः?
अहम्.
एकः एव कर्ता क्रियाद्वयं करोति, पुष्पाणां चयनं करोति अपि च भवानेव गृहं गच्छति. अतः पूर्वकालिकी क्रियायाः क्त्वा प्रत्ययः विहितः भवति. समानकर्तृकयोः पूर्वकाले इति विधिसूत्रेण क्त्वा प्रत्ययः सर्वेभ्यः धातुभ्यः विहितः भवति. केचन कृत् प्रत्ययाः सर्वेभ्यः धातुभ्यः विधीयन्ते, न तु सर्वे. इत्युक्ते सर्वे कृत् प्रत्ययाः सर्वेभ्यः धातुभ्यः न विधीयन्ते, किन्तु क्त्वा प्रत्ययः तादृशः नास्ति. क्त्वा प्रत्ययः सर्वेभ्यः धातुभ्यः विहितः भवति. क्त्वा प्रत्ययः कित् प्रत्ययः वदतु.
कित् प्रत्ययः अस्ति चेत् तत्र कित् नित्वत् भवति. अतः क्नति च सूत्रेण
क्त्वा प्रत्ययः साक्षात् कित् अस्ति. किमर्थं नित्वत्?
कित् अस्ति तत्र
साक्षात् कित् खलु?
साक्षात् कित् अस्ति, अतः गुणनिषेधः भवति.
करोतु.
तत्र चि धातुः अस्ति, अपि च त्वा त्वा प्रत्ययः अस्ति. अत्र चि योग त्वा चित्वा भवति, गुणकार्यं नास्ति.
उत्तमं. चि इति इगन्तमङ्गमेव, इगन्तमङ्गमस्ति इति कारणतः गुणकार्यं भवति स्म, किन्तु न भवति. किमर्थं चेत् चि इति इगन्तम् अङ्गमस्ति, किन्तु तस्मात् परं कित् प्रत्ययः अस्ति. कित्वात् गुणनिषेधः भवति क्निति च सूत्रेण. अपि च क्त्वान्तरूपाणि अव्ययपदानि भवन्ति. तदर्थम् एकं सूत्रमस्ति क्त्वा तोसुन् कसुनः इति एकं सूत्रमस्ति. क्त्वा तोसुन् कसुनः इति सूत्रेण क्त्वा प्रत्ययान्तशब्दाः अपि च अन्यशब्दाः, तोसुन् प्रत्ययान्तशब्दाः, कसुन् प्रत्ययान्तशब्दाः अव्ययसंज्ञकाः भवन्ति. इत्युक्ते क्त्वा इत्यस्य रूपाणि नाभिद्यन्ते सप्तसु विभक्तिषु, खलु?
अस्तु अस्तु. अव्यय अस्ति चेत् परिवर्तनं न भवति.
उत्तमम्. चित्वा इति पदं सुबन्तपदमेव, इत्युक्ते तस्य अन्ते सुप्रत्ययः अस्ति, किन्तु अव्ययात् आप्सुपः इति विशिष्टसूत्रेण तस्य अन्ते स्थितस्य सुप्रत्ययस्य लुक् भवति. यद्यपि लुक् भवति, प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण तत्र प्रत्ययलक्षणं तिष्ठति. अतः तत् पदं सुबन्तमेव. अव्ययम् अस्ति इति कारणतः तस्य रूपाणि सप्तसु विभक्तेषु, त्रिषु लिङ्गेषु, त्रिषु वचनेषु न भिद्यन्ते. अतः एकमेव रूपं द्रष्टुं शक्नुमः, चित्वा, खलु? उत्तम. इदानीं नीलं भगिनी भवती वदतु, णिच् प्रत्ययस्य योजनेन किं भवति चि धातुतः?
अत्र चि यः धातुः अस्ति, चि योग णिच् कुर्मः चेत् तत्र वयं दृष्टवन्तः चि इति इडानुकूलः नास्ति. णिच् इति यः प्रत्ययः अस्ति, णिच् प्रत्यये तत्र नकारस्य इत्संज्ञा भवति, चकारस्य अपि इत्संज्ञा भवति, तत्र इ एव अवशिष्यते. णिच् प्रत्ययः अपि इडानुकूलः नास्ति. किमर्थं चेत् तत्र अर्धधातुक् सेड् वलादेः इति सूत्रेण तत्र वल् प्रत्याहारस्य वर्णः न, तत्र स्वरः अस्ति. अतः निच् अपि इडानुकूलः न, चि चि अपि इडानुकूलः न.
चि धातुः चुरादिगणे नास्ति. अत्र केन सूत्रेण चि धातोः परं णिच् प्रत्ययः विहितः भवति? णिचः विधानं केन सूत्रेण भवति? अत्र
अत्र णिच् यः अस्ति सः प्रेरणार्थे अस्ति, अतः अत्र हेतुमति च सूत्रेण णिच् प्रत्ययः विधीयते. हेतुमति च सूत्रेण
अत्र प्रक्रिया कीदृशी अस्ति?
आम्, अत्र प्रत्ययस्य स्वभावः पश्यामः चेत् शित् तिङ् शित् नास्ति, तिङ् नास्ति, अतः अर्धधातुक् शेषः इति सूत्रेण तत्र प्रत्ययः अर्धधातुक् अस्ति. अर्धधातुक् नित् प्रत्ययः, अर्धधातुक् नित् प्रत्ययः अस्ति चेत् तत्र विशिष्टकार्यं भवति. तत्र अचोनिनिति इति सूत्रेण तत्र अचोनिनिति इति सूत्रस्य प्रसक्तिः. किमर्थं चेत् अत्र धातुः अजन्तम् अस्ति.
उत्तमम्. अत्र प्रक्रिया तु आर्धधातुकप्रक्रिया खलु? णिचिति आर्धधातुकप्रत्ययः अस्ति, अपि च सनादिप्रत्ययेषु अन्यतमः. अतः णिच् प्रत्ययस्य योजनेन नूतनधातोः निर्माणं भवति. इदानीं वदतु.
इदानीं किं भवति, अत्र णिच् इति प्रत्ययः अचोनिनिति इति सूत्रेण तत्र अजन् यः अच्वर्णः तस्य वृद्धिः, इकारस्य वृद्धिः ऐकारः. सो ची चे भवति, चै भवति, ची चै भवति. चै योग ई कुर्मः चेत् तत्र अनन्तरं सन्धिकार्यम् इत्युक्ते तत्र एचोयवायावः इति सूत्रेण तत्र ऐकारस्य स्थाने तत्र आय् इति आदेशः. सो चायी इति नूतनधातु.
अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रं किमर्थं कार्यं न करोति? अत्र ची इति इगन्तमङ्गम् अपि च अजन्तम् इति अपि वक्तुं शक्यते. अत्र चिन्तनं किम्?
सार्वधातुकार्धधातुकयोः इति सूत्रं सामान्यसूत्रम् इत्युक्ते तत्र किमपि विशिष्टप्रत्ययस्य विषये नास्ति. परन्तु अचोणिणिति इति सूत्रं तस्मिन् यः प्रत्ययः निर्दिष्टम् अस्ति सः णित् अपि च णित् प्रत्ययः अस्ति. सो तत्र अर्धधातुप्रत्ययः तु अस्ति परन्तु णित् णित् तत्र क्षम्यतां, तत्र अर्धधातुक् इति न तत्र निर्दिष्टं, परन्तु तत्र केवलं णित् अपि च णित् प्रत्ययः. सो अहं चिन्तयामि अत्र अचोनिनिति इति यः विशिष्टसूत्रं सार्वधातुकार्धधातुकयोः इति सामान्यसूत्रम्.
उत्तमं. सार्वधातुकार्धधातुकयोः इति सूत्रं प्रबाध्य अचोणिति इति सूत्रं कार्यं करोति अपवादत्वेन. अत्र अजन्तमङ्गमस्ति इत्यतः णिति इणिति प्रत्यये परे चि इति अजन्तमङ्गमस्ति इत्यतः वृद्धिकार्यं भवति, न तु गुणकार्यम्. अत्र चायि इति नूतनधातुः, तस्य धातुसंज्ञा सनाद्यन्ता धातवः इति सूत्रेण भवति. अग्रे लटिरूपं साधयतु.
चायि इति वयं जानीमः तस्य धातुसंज्ञा सनाद्यन्तः धातुः इति सूत्रेण भवति. अनन्तरम् अस्माकं विवक्षा लट् लकारस्य एकवचनस्य विवक्षा अस्ति, अतः अत्र चायि योग तिप् कुर्मः, चायि योग तिप् भवति. सो चायि यः अस्ति सः धातुः अस्ति, धातुसंज्ञक भवति, अतः अत्र धातु साक्षात् तिङ् प्रत्ययं पश्यति. अतः अत्र अत्र कर्तरि शप् सार्वधातुके इति सूत्रेण शप् प्रत्ययस्य विधानं, शप् प्रत्ययः मध्ये आयाति.
कर्तरि शप् इत्यस्मिन् सूत्रे गणस्य उल्लेखः नास्ति. इत्युक्ते यत्र यत्र कर्त्रार्थकसार्वधातुकप्रत्ययः धातोः परम् अस्ति तत्र तत्र कर्तरि शप् आगन्तुं शक्नोति. विशेषतया कर्तरि शप् इत्यस्मिन् सूत्रे गणस्य उल्लेखः नास्ति. अत्र चायि इति नूतनधातुः, धातोः साक्षात् अनन्तरं कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति इत्यतः शप् आगन्तुं शक्नोति. वदतु.
अतः अत्र चायि योग शप् योग तिप् भवति. सो शप् प्रत्यये शप् प्रत्ययः शकार पकार योः लोपः भवति, इत्संज्ञा भवति, अनन्तरं लोपः भवति. शप् इति प्रत्ययः सार्वधातुक् पित् प्रत्ययः. अतः अत्र शप् शप् कारणेन अत्र अङ्गकार्यं, किमर्थं चेत् चायि इति इगन्तम् अङ्गं, तत्र अन्ते इकारः अस्ति. सो अत्र चायि चायि चाये भवति, एकारः आयाति, इकारस्य स्थाने एकारः. चाये योग अयोगति, चाये योग अकुर्मः चेत् अत्रापि एचोयवायावः इति सूत्रेण एकारस्य स्थाने ऐ इति आदेशः. सो ऐ इति आदेशः भूत्वा तत्र किं भवति, चाय यति इति वर्णमेलनेन. तिप् तिप् यः प्रत्ययः अस्ति सः सः अपि सार्वधातु पित् पित् प्रत्ययः, परन्तु अत्र अङ्गम् अदन्तम् अङ्गम्, अतः अत्र अपि च उपधायाम् अत्र यकारः. सो अत्र सार्वधातुक अर्धधातुकयोः अपि च पुगन्तलघुपदस्य च सूत्रस्य प्रसक्तिः न भवति. सो अत्र केवलं वर्णमेलनेन चाययति इति रूपं सिध्यते, लटीरूपं, निजन्तलटीरूपं.
बहु सम्यक्, उत्तमं भगिनि. तिप् प्रत्ययं निमित्तीकृत्य तत्र अङ्गमस्ति चायय इति अङ्गमस्ति. तिप् प्रत्ययः यद्यपि पित् अस्ति किन्तु अत्र अङ्गम् इगन्तं नास्ति, चायय इति अस्ति, तत्र अन्ते अकारः अस्ति, इगन्तम् अङ्गं नास्ति. उपधायामपि लघु इक् वर्णः नास्ति, अतः अन्तिमसोपाने तिप्रत्ययं निमित्तीकृत्य तत्र अङ्गकार्यं नास्ति, केवलं वर्णमेलनम्. अतः चाययति इति रूपं भवति, चाययित्वा इति रूपं भवति, क्त्वान्तरूपं वक्तुमिच्छामश्चेत् इत्युक्ते निजन्तयुक्तं क्त्वान्तरूपं. चाययित्वा इत्युक्ते निजन्तानाम् अपि सर्वाणि कृदन्तरूपाणि सम्भवन्ति. अत्र चायि इति नूतनधातुः, चायि इति नूतनधातुतः निजन्तयुक्तानि सर्वाणि कृदन्तरूपाणि साधयितुं शक्नुमः. चायि धातुतः क्त्वान्तरूपं साधयितुम् इच्छामश्चेत् तत्र चाययित्वा इति रूपं सिध्यति, तत्रापि गुणकार्यम् अपि च सन्धिकार्यं भूत्वा तादृशं रूपं सिध्यति. अपि च सर्वे निजन्तधातवः अनेकाचः, अतः इडागमयोग्याः. णिजन्तधातवः अनेकाचः, धातुः अनेकाच् अस्ति चेत् सेट् भवति, निजन्तधातवः सर्वे सेटः. क्त्वा प्रत्ययः अपि तकारादिप्रत्ययः, तकारादिकृत् प्रत्ययः इत्यतः क्त्वा प्रत्ययः अपि सेट् प्रत्ययः. अतः तत्र चाययित्वा इति रूपम्, इडागमयुक्तं रूपं क्त्वान्तरूपं सिध्यति, णिजन्तयुक्तं क्त्वान्तरूपम् चाययित्वा इति भवति. भवती तुमुन्नन्तं वदतु, नीलं भगिनि.
निजन्त तुमुन्
निजन्तं नास्ति, सामान्य तुमुन्नन्तम्
अस्तु अस्तु. ची योग तुमुन् कुर्मः चेत् तत्र तुमुन् इति प्रत्यये तत्र नकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति, तत्र तुम् एव अवशिष्यति.
अत्र उकारः उच्चारणार्थः खलु.
तत्र उकारः उच्चारणार्थं सः अपि अपगच्छति, तस्य तत्र सूत्रम् अस्ति स्वरस्य कृते.
उपदेशजनुनासिके इति सूत्रेण इति संज्ञकः इति नास्ति. मया किं श्रुतम् इत्युक्ते तत्र मकारोत्तरवर्ति उकारः केवलम् उच्चारणार्थः.
अस्तु, सो तत्र सः यः उच्चारणार्थम् अस्ति अतः स स्वरः न तिष्ठति, तत्र तुम् एव अवशिष्टभागः. तुम् इति प्रत्ययः यः अस्ति सः शित् न तिङ् न, अतः अर्धधातुकशेषः इति सूत्रेण अर्धधातुक प्रत्ययः, परन्तु सः अपि तत्र कित् न नित् न नित् न नित् न सामान्य अर्धधातुक प्रत्ययः अस्ति. सामान्य अर्धधातुकप्रत्ययः अस्ति चेत् तत्र किं भवति, गुणकार्यं तत्र भवति. सो तुमुन् इति प्रत्ययः तत्र आदिं वर्णः तकारः, तकारः अस्ति वल् प्रत्याहारस्य वर्णः, अतः तत्र तुमुन् इति प्रत्ययः इडानुकूलः. अनन्तरं तुमुन् इति प्रत्ययः कृत् अपि अस्ति, सो न इट् वशीकृति इति वश् प्रत्याहारस्य वर्णः न, अतः अत्र इड् इट् इट् आगमस्य कृते बाधा नास्ति, परन्तु धातु अनिट् अस्ति, अतः अत्र इडागमः न भवितुम् अर्हति. सो ची योगत्वं कुर्मः चेत् तत्र ची चे भवति, सार्वधातुक अर्धधातुकयोः इति सूत्रेण ची चे भवति, चे योगत्वं कुर्मः चेत् अनन्तरं कोऽपि कार्यं नास्ति तत्र स्वरस्य स्वरस्य परे तत्र व्यञ्जनः अतः सन्धिकार्यम् अपि नास्ति सो वर्णमेलनेन तत्र चेतुम् इति रूपं चेतुम् इति कृदन्तरूपम्
बहु सम्यक् भगिनी तुमन् प्रत्ययः कित् नित् णित् णित् भिन्नः आर्धधातुक कित् नित् णित् णित् भिन्नः इत्यतः सामान्य आर्धधातुकप्रत्ययः अपि च धातुः इगन्तधातुः इत्यतः गुणः भूत्वा तुमन् प्रत्ययं निमित्तीकृत्य चि इति धातुरूपी अङ्गे अङ्गकार्यं गुणकार्यं भूत्वा चे भवति पश्चात् वर्णमेलनेन चेतुं चेतुम् इति अव्ययं भवति अव्ययपदमस्ति इत्युक्ते तस्य रूपाणि न भिद्यन्ते तदर्थम् एकं सूत्रमस्ति कृण्मे जन्तः इति एकं सूत्रमस्ति कृण्मे जन्तः इति सूत्रेण तुमन्नन्तपदानि अव्ययपदानि भवन्ति इत्युक्ते कृत्प्रत्ययान्तशब्दस्य अन्ते मकारः अस्ति चेत् इत्युक्ते तुमुन् इत्यत्र तुम् अवशिष्यते खलु अनुबन्धवर्णानां लोपकार्यानन्तरं तुम् अवशिष्यते इत्युक्ते मकारान्तकृत् प्रत्ययः मकारान्तकृत् प्रत्ययः यस्य शब्दस्य अन्ते अस्ति तत् अव्ययपदं भवति तदर्थम् अन्यत् उदाहरणमपि वदामि णमुल् इति प्रत्ययः अस्ति णमुल् प्रत्यये अपि लकारः इति संज्ञकः णम् एव अवशिष्यते णमुल् प्रत्ययान्तशब्दाः अपि अव्ययसंज्ञकाः भवन्ति स्मारं स्मारम् इति कथनेन अव्ययपदं भवति तस्य रूपाणि भिन्नासु विभक्तिषु न भिद्यन्ते इति विषयः तुमन्नन्तपदानि कृण्मेजन्तः सूत्रेण अव्ययसंज्ञकशब्दाः भवन्ति अपि च तुमन् प्रत्ययस्य विधानार्थं विधिसूत्राणि सन्ति समानकर्तृकेषु तुमुन् इति एकं सूत्रं तुमुन् नुवुलौ क्रियायां क्रियार्थायाम् इति एकम् अन्यत् सूत्रमस्ति तुमुन् नुवुलौ क्रियायां क्रियार्थायाम् इत्युक्ते क्रियायां क्रियार्थायां भविष्यदर्थे तुमन् प्रत्ययः भवति एकं वाक्यं वदतु तुमन् प्रत्ययम् उपयुज्य चेतुम् उपयुज्य वदतु भगिनी वदतु
अहं पुष्पं चेतुम् उद्यानं गच्छामि
उत्तमम् उत्तमानि पुष्पाणि चेतुम् उद्यानं गच्छामि पुष्पाणि चेतुम् उद्यानं गच्छामि अत्र मुख्या क्रिया अस्ति चयनक्रिया अपरा क्रिया अस्ति गमनक्रिया इत्युक्ते चयनक्रियार्थं गमनक्रिया अस्ति चयनक्रियार्थम् अपरा क्रिया अस्ति चयनक्रियार्थं क्रियमाणा क्रिया गमनक्रिया मुख्यक्रिया तु चयनक्रिया तदर्थं गमनक्रिया अस्ति विधिसूत्रे तदेव उक्तमस्ति तुमुन् नुवुलौ क्रियायां क्रियार्थायाम् इति विधिसूत्रेण तुमुन् प्रत्ययः विहितः भवति नुवुल् प्रत्ययः अपि एवमेव भविष्यदर्थे तुमन् प्रत्ययः विहितः भवति भविष्यति इति पदं तस्मिन् सूत्रे अनुवृत्तं भवति चयनं कर्तुम् उद्यानं गच्छामि इत्युक्ते तत्र भविष्यदर्थे तुमन् प्रत्ययः विहितः भवति एकस्याः क्रियायाः कृते अपरा क्रिया क्रियते चेत् तदा क्रियार्था क्रिया इति वदामः पठितुं विद्यालयं गच्छामि इत्यत्र पठनक्रिया अस्ति गमनक्रिया अस्ति पठनार्थं क्रियमाणा क्रिया एव गमनक्रिया अतः तस्मिन् सन्दर्भे मुख्यक्रियायाः तुमुन् प्रत्ययः भवति पुष्पाणि चेतुम् उद्यानं गच्छामि इत्यत्र चयनक्रिया एव मुख्या क्रिया अतः मुख्यक्रियायाः तुमुन् प्रत्ययः भवति इति अनेन सूत्रेण उच्यते तुमुन् प्रत्ययस्य विधानार्थम् अन्यानि सूत्राणि अपि सन्ति समानकर्तृकेषु तुमुन् इति एकं सूत्रमस्ति अपि च पठितुं शक्नोमि इत्यत्र शक्नोमि इति रूपमस्ति खलु संस्कृतव्याकरणं पठितुं शक्नोमि तस्मिन् प्रसङ्गे भिन्नसूत्रं कार्यं करोति भोक्तुमिच्छति भोक्तुं वाञ्छति भोक्तुं कामयते इत्यादिषु भिन्नसूत्रं कार्यं करोति इत्युक्ते तुमुन् प्रत्ययस्य प्रसङ्गे पञ्च वा षड् वा सूत्राणि स्मर्तव्यानि तुमुन् प्रत्ययस्य योजनेन यद्रूपं सिद्ध्यति तत्पदम् अव्ययपदं भवति एषा प्रक्रिया आर्धधातुकप्रक्रिया इति स्मर्तव्यः अग्रिमप्रत्ययः अस्ति णुवुल् प्रत्ययः ची धातुतः णुवुल् प्रत्ययस्य योजनेन किं रूपं सिद्ध्यति सुन्दरमहोदय वदतु
ची योगे ण्वल् प्रत्ययः णकारः चुटु इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति. एवं लकारः अपि हलन्त्यम् इति सूत्रेण लोपः भवति. वु एव अवशिष्यते. एवं युवरणाकौ इति सूत्रेण वु इत्यस्य स्थाने अक इति आदेशः आदेशः भवति. अत्र नूल्पत्ययः कृत नूल्पत्ययः तिङ्क्षित् नास्ति इति कारणेन आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकप्रत्ययः. नूल्पत्ययः कृतत्यङ् इति सूत्रेण अतिङ्प्रत्ययः इति कारणेन नूल्पत्ययः कृत् अपि अस्ति, कृत् प्रत्ययः अपि अस्ति. सो नूल्पत्ययः कृत् प्रत्ययः अपि अस्ति, एवम् आर्धधातुकप्रत्ययः अपि अस्ति इति कारणेन तत्र आर्धधातुकप्रक्रिया करणीया. आर्धधातुकप्रक्रियायां प्रथमसूत्रं प्रथमम् इडागमचिन्तनं करणीयम्. इडागमचिन्तने प्रथमसूत्रम् अस्ति आर्धधातुक स्येड् वलादेः इति सूत्रम्. अत्र अक इति आदेशः अत्र अस्ति. अक इति प्रथमवर्णः अ एव अकारः वल् प्रत्याहारे नास्ति इति कारणेन तत्र इडागमः न भवति.
इत्युक्ते चिन्तनं तत्र एव स्थगितं भवति.
नेड् वशीकृति इति सूत्रम् अत्र कार्यं न करोति. प्रथमसूत्रे एव इडागमचिन्तनं पूर्णं भवति, स्थगितं भवति. तदनन्तरम् ओके अक अधुना ची इति धातुः पूर्वमेव अनिट् भवति. एतदपि अनिट् भवति, प्रत्ययः अपि अनिट् भवति, ची इति धातुः अपि अनिट् भवति इति कारणेन अत्र इडागमः कदापि न भवति. अत्र ची योगे ण्वल्पत्ययः अक इति आदेशः भवति. ची योगे अक भवति. ची इति इगन्तधातुः अस्ति इति कारणेन गुणस्य प्रसक्तिः भवति. एवम् अक इत्यस्य ण्वल्पत्ययः णित् अस्ति, णित् प्रत्ययः अस्ति इति कारणेन तत्र वृद्धिः भवति. नूल् अचोणिति इति सूत्रेण णित् सोरि ची प्रत्ययः अच् प्रत्याहारे अस्ति. ची प्रत्ययः अच् प्रत्याहारे अस्ति. एवं णित् अपि अस्ति इति कारणेन अचोण्णिति इति सूत्रेण तत्र वृद्धिः भवति. गुणः बाधयित्वा वृद्धिः भवति, इति कारणेन ची योगे अक ची चै भवति, वृद्धिः भूत्वा चै भवति. तदनन्तरं चै योगे अक तदनन्तरं सन्धिसूत्रेण एजो अयवायावः इति अयादिसन्धिसूत्रेण चै इति वर्णः चाय् भवति. चाय् योगे अक चायक इति प्रातिपदिकं भवति. एवं चायकः इति अन्तिमं रूपं सिद्ध्यति.
उत्तमं महोदय. अयं प्रत्ययः आर्धधातुक अणित्यप्रत्ययः, आर्धधातुक अणित्यप्रत्ययः इत्यतः सार्वधातुकार्धधातुकयोः इति सूत्रं प्रबाध्य बाधित्वा तस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः नास्ति. अचोयिणिति इति अपवादसूत्रेण अत्र अजन्तमङ्गमस्ति. चि इति अजन्तमङ्गं, धातुरूपी अजन्तमङ्गमस्ति, धातोः परं णित् प्रत्ययः अस्ति. अतः अचोयिणिति इति सूत्रेण वृद्धिकार्यं भवति. चि इत्यस्य इकारस्य वृद्धिसंज्ञकवर्णः ऐकारः. तदनन्तरं सन्धिकार्यं भूत्वा चाय् भवति चायक इति रूपं सिद्ध्यति. अयं प्रत्ययः कर्त्रार्थकप्रत्ययः, कर्तरीकृत् इति सूत्रेण कर्त्रार्थकप्रत्ययः, नूल् प्रत्ययः. चायकः, चायकः गच्छति. अस्य कृते अपि विधिसूत्रद्वयं ज्ञातव्यं. नुवुल् तृचौ इति एकं सूत्रमस्ति. नुवुल् तृचौ इति सूत्रेण सर्वेभ्यः धातुभ्यः नुवुल् प्रत्ययः अपि च तृच् प्रत्ययः द्वौ प्रत्ययौ भवतः. अपि च तुमुन्नुवुलौ क्रियायां क्रियार्थायां, तत् सूत्रमपि अत्र कार्यं करोति. नुवुल् प्रत्ययस्य प्रसङ्गे एव उक्तमस्ति. तुमुन्नुवुलौ क्रियायां क्रियार्थायाम् इति एकः विषयः. अयं प्रत्ययः कर्त्रार्थकप्रत्ययः इति अन्या वार्ता. नुवुल् प्रत्ययस्य अनुबन्धलोपानन्तरं युवोरनाकौ इति सूत्रेण वूस्थाने अक आदेशः भवति. तस्य अनन्तरमेव प्रत्ययस्य आदिमवर्णः द्रष्टव्यः इति महोदयेन उक्तमस्ति. तदेव साधु इति ममापि चिन्तनमस्ति. इत्युक्ते आदौ णुवुल् प्रत्ययस्य अनुबन्धलोपं कुर्मः, पश्चात् युवोरनाकौ सूत्रेण वूस्थाने अक आदेशः भवति इत्यतः तत्र प्रत्ययस्य आदिमवर्णः आदेशानन्तरं द्रष्टव्यम्. अकारः प्रत्ययस्य आदिमवर्णः भवति, अकारः वलादिः नास्ति इत्यतः अयं प्रत्ययः अनिट् प्रत्ययः, इडनुकूलः नास्ति अयं प्रत्ययः इति एकः विषयः. युवोरनाकौ इत्यस्मिन् सूत्रे युस्थाने अन आदिष्टः भवति, वूस्थाने अक आदिष्टः भवति. इत्युक्ते तत्र क्रमेण आदेशौ भवतः. तदर्थमेव तत्र यथासङ्ख्यमनुदेशः समानाम् इति परिभाषासूत्रम् आवश्यकमस्ति. इत्युक्ते युस्थाने अन, वूस्थाने अक, क्रमेण आदेशौ भवतः इति कथयितुं तत्र यथासङ्ख्यमनुदेशः समानाम् इति परिभाषासूत्रस्य आवश्यकता अस्ति. एतावत्पर्यन्तं णुवुल् प्रत्ययस्य रूपं साधितवन्तः. इदानीं तृजन्तरूपं वदतु.
तृजन्तरूपं, तृजन्तरूपं वदामि. तृच् प्रत्ययः, ओके. चि योगे तृच् तृच् भवति. तृच् प्रत्ययः तत्र चकारः, चकारः हलन्त्यम् इति सूत्रेण यत्संज्ञा भूत्वा लोपः भवति. तदनन्तरं तृ एव अवशिष्यते. एवं तृ इत्यस्य तृच् प्रत्ययः तिङ्क्षित् नास्ति इति कारणेन सः आर्धधातुकप्रत्ययः. एवम् अतिङ् अस्ति इति कारणेन कृदतिङ् इति सूत्रेण कृत् प्रत्ययः अपि अस्ति. एवं तृच् प्रत्ययः आर्धधातुककृत् प्रत्ययः इति कारणेन आर्धधातुकप्रक्रिया भवति. अधुना इडागमचिन्तनं करणीयमेव. इडागमचिन्तनस्य प्रथमं सूत्रम् अस्ति आर्धधातुकस्येड् वलादेः इति सूत्रं. तृच् प्रत्ययस्य तृ इति प्रत्ययस्य तकारः वलादिवर्णः अस्ति इति कारणेन तस्य इडागम सिद्धिः भवति, इडागमः भवति एव. अधुना द्वितीयसूत्रं नेड् वशीकृति इति सूत्रेण तकारः वशादिप्रत्ययः अपि अस्ति. नास्ति वशादिप्रत्यये वशादि वर्णः नास्ति इति कारणेन इड् न भवति.
भवतः पुरतः माहेश्वराणि सूत्राणि सन्ति चेत् एकवारं पश्यतु. वल् इति कथनेन हयवरट् इत्यत्र वकारः अस्ति. हयवरट् इति पञ्चमं सूत्रम् अस्ति. हयवरट् इत्यत्र वकारात् आरभ्य अन्तिमसूत्रपर्यन्तं हल् पर्यन्तं वल् प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि सन्ति. वश् इति कथनेन हयवरट् इत्यस्मिन् वकारः अस्ति. वकारात् आरभ्य जबगडदश अस्ति तावत्पर्यन्तम् इत्युक्ते वलादिवर्णः स्यात् किन्तु वशादिवर्णः मा भूत्
वलादिवर्णः स्यात् परन्तु वशादिवर्णः मा भूत् इति कारणेन वशीकृति न इट् इड् न भवति यदि प्रत्याहारे नास्ति इति कारणेन तत्रापि इडागमचिन्तनं भवति एव इति कारणेन इड् भवितुम् इडागमः भवितुम् अर्हति परन्तु चीधातुः अनिड् धातुः भवति इति कारणेन इडागमः भवितुं नार्हति अधुना चे योगे ची योगे तृच् तृ एव अवशिष्यते तृच् पतेः आर्धधातुकपतेः एवं तत्र कित् ङित् णित् ङित् नास्ति इति कारणेन भिन्नः इति कारणेन तत्र गुणकार्यं भवति एव चि योगे तृ चि योगे तृ अधुना गुणः भूत्वा चे योगे तृ इति भवति चेतृ इति भवति चेता चेतारौ चेतारः इति रूपाणि सिद्ध्यन्ति चेतृ इत्येव उत्तमं रूपं सिद्ध्यति
उत्तमं चेतृ इति प्रातिपदिकम् अस्ति ऋकारान्तप्रातिपदिकम् अस्ति चेता इति प्रथमाविभक्ति एकवचनरूपं चेता चेतारौ चेतारः चेतारं चेतारौ चेतॄन् पुंलिङ्गरूपाणि भवन्ति चेतृ इति प्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु रूपाणि साधयितुं शक्नुमः चेता इति पुंलिङ्गे भवति चेत्री इति स्त्रीलिङ्गे भवति नपुंसकलिङ्गे चेतृ इति भवति चेत्री इति स्त्रीलिङ्गरूपं साधयितुं ऋण्येभ्यो नीप् इति सूत्रमस्ति ऋण्येभ्यो नीप् इति कथनेन ऋकारान्तप्रातिपदिकेभ्यः नीप् इति स्त्रीप्रत्ययः भवतु इति अर्थः ऋण्येभ्यो नीप् इति सूत्रेण चेतृ इति प्रातिपदिकात् नी प्रत्ययः विहितः भवति अतः चेत्री इति स्त्रीलिङ्गरूपं सिद्ध्यति नपुंसकलिङ्गे चेतृ इति एव प्रातिपदिकं प्रथमाविभक्ति एकवचनरूपमपि चेतृ एव तृच् प्रत्ययः अपि णुवुल् तृचौ इति विधिसूत्रेण विहितः भवति इत्युक्ते सर्वेभ्यः धातुभ्यः णुवुल् तृचौ इति सूत्रेण तृच् प्रत्ययः विहितः भवति अयं प्रत्ययः अपि कर्त्रार्थकप्रत्ययः महोदय एकं वाक्यं वदतु चेता इति पदम् उपयुज्य
चेता ओके अहं पुष्पस्य चेता भवामि अहं पुष्पस्य चेता भवामि किमर्थं चेत् पूजार्थम् अहं पुष्पं चितवान् इति कारणेन अहमेव चेता भवामि
प्रत्ययः तु आर्धधातुकप्रत्ययः कित् णित् 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 भिन्नः आर्धधातुकसामान्यप्रत्ययः इदानीं क्तान्तरूपं क्तवत् रूपं क्त्वान्तरूपं क्तिन् रूपम् एतेषां चतुर्णां रूपाणि साधनीयानि नरसिंहहेग्डेमहोदय भवान् वदतु
चीयोगत्वा तत्र ककारस्य इष्टान्य भवति दशक्तद्वितीयदिन त्वा इति अवशिष्यते त्वा इति इदानीं तिंशित् नास्ति अतः अर्धातुकं शेषत्वेन अर्धातुकप्रत्ययः भवति कृदतिङ् इति सूत्रेण कृत्प्रत्ययः भवति अर्धातुककृत्प्रत्ययः अस्ति त्वा ची इति इडानुकूलं नास्ति इति वयं दृष्टवन्तः त्वा इति पश्यामः चेत् तत्र तकार आदौ अस्ति अर्धवलादे इत्यनेन इडागमं भवति प्रसक्तिः भवति परन्तु कृत्प्रत्ययः अस्ति तद् नेत् वशीकृति इत्यनेन तकार अवशादे अस्ति अतः तस्यापि इडागमस्य प्रसक्तिः परन्तु चि इति धातु अनेक अस्ति इति कृत्वा इडागमनं भवति इदानीं त्वा इति कित् अस्ति ककारः सम्यक् अस्ति अतः तत्र इति चेत् सूत्रेण गुणनिषेधः वृद्धिनिषेधः अथवा किमपि कार्यं न भवति इडागमः न भवति वृद्धिः न भवति गुणः न भवति केवलं वर्णमेलनं कित्वा इति भवति
क्त्वान्तरूपं उत्तमं साधु महोदय. चित्वा इति रूपं क्त्वान्तरूपम् अस्ति. चित्वा इति पदम् अव्ययपदं भवति. अहं पूर्वम् उक्तवती क्त्वा तो सुन् खसुनः इति विशिष्टसूत्रेण क्त्वा प्रत्ययान्तपदानि अव्ययसंज्ञकपदानि भवन्ति. एकं वाक्यं वदतु महोदय.
अहं पुष्पं चित्वा मन्दिरं गच्छामि.
उत्तमं. क्तान्तरूपं साधयतु इदानीं.
तत्र की योगक्त क त इत्यत्रापि ककारस्य संज्ञा न शक्तद्यते न त इति अवशिष्यते. तत्र पुनः त इत्यत्र तकार अस्ति, वल्वर्णः अस्ति, अतः अर्धेरवलादिष्टसंज्ञा प्रसक्ति, अवशादे अस्ति तत्रापि प्रसक्ति, परन्तु धातु अनीट् अस्ति अतः इदानीं न भवति. ककार इत्संज्ञक अस्ति इति कृत्वा इति चेत् सूत्रेण गुणवृद्धिनिषेधः. तत्र इदानीं किमपि कार्यं नास्ति. तत्र चित एव भवति.
यथा महोदयेन उक्तमस्ति क्ताप्रत्ययः आर्धधातुकप्रत्ययः, तिंशित् नास्ति, अतः आर्धधातुकप्रत्ययः. अपि च अतिङ्प्रत्ययः, अतः कुरुत् प्रत्ययः. प्रत्ययः आर्धधातुक कित् प्रत्ययः. आर्धधातुक कित् प्रत्यये परे गुणनिषेधः भवति. चि इति इगन्तम् अङ्गमेव, किन्तु तस्मात् परं कित् प्रत्ययः अस्ति, अतः क्निति च सूत्रेण गुणनिषेधः भवति. सार्वधातुक अर्धधातुकयोः प्रसक्तिः अस्ति, किन्तु प्रत्ययस्य कित्वात् गुणनिषेधः. अन्ततो गत्वा वर्णमेलनेन चित इति प्रातिपदिकम् अस्ति. चित प्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु, त्रिषु वचनेषु, सप्तसु विभक्तिषु एकविंशति रूपाणि साधयितुं शक्नुमः. अपि च क्ताप्रत्ययः निष्ठासंज्ञकप्रत्ययः. भाषायां बहवः संज्ञाः सन्ति, तेषु अन्यतमा संज्ञा अस्ति निष्ठा इति संज्ञा अस्ति. क्ताप्रत्ययः क्तवतु प्रत्ययः एतौ द्वौ प्रत्ययौ निष्ठासंज्ञकप्रत्ययौ. किमर्थम् एतादृशी संज्ञा दीयते इत्युक्ते निष्ठासंज्ञायाः प्रयोजनानि सन्ति. निष्ठासंज्ञाम् उपयुज्य कानिचन सूत्राणि उक्तानि संस्कृतव्याकरणे. एकं सूत्रमस्ति निष्ठायां सेटि, तत् सूत्रं निष्ठासंज्ञाम् उपयुज्य दत्तमस्ति. इत्युक्ते णिजन्तानां प्रसङ्गे णिजन्तपदानां क्तान्तरूपाणि साधयितुं तस्मिन् सन्दर्भे इदं सूत्रम् आयति, निष्ठायां सेटि. आहत्य अत्र निष्ठासंज्ञाम् उपयुज्य कानिचन सूत्राणि व्याकरणे उक्तानि. एवमेव एकम् अन्यत् सूत्रम् अहं जानामि, रदाभ्यां निष्ठातः नः पूर्वस्य च दः इति एकं सूत्रमस्ति. रदाभ्यां निष्ठातः नः पूर्वस्य च दः. तेन सूत्रेण किं भवति इत्युक्ते भिद् इति धातुः अस्ति चेत् तस्य क्तान्तरूपं भिन्न इति भवति. धातुः भिद्, क्तान्तरूपं कथं भवति? भिन्न भवति. कथम् इत्युक्ते तत्र रदाभ्यां निष्ठातः नः पूर्वस्य च दः इति विशिष्टसूत्रेण निष्ठासंज्ञाम् आश्रित्य तत् सूत्रमस्ति. तेन सूत्रेण भिद् धातुतः भिन्न, छिद् धातुतः छिन्न इत्यादीनि रूपाणि साधयितुं शक्नुमः. क्ताप्रत्ययः निष्ठासंज्ञकप्रत्ययः. क्ता क्तवतु निष्ठा इति सूत्रेण सर्वेभ्यः धातुभ्यः क्ताप्रत्ययः विहितः भवति. अग्रे क्तवत् प्रत्ययान्तरूपं साधनीयं. महोदय भवानेव वदतु.
क्तवतु तत्र ककारस्य लशक्तद्युते इत्यनेन ईशान्या भवति. तु इत्यत्र उपदेशे जुनासकत् इत्यनेन उकारस्य ईशान्या भवति. तवत् इति अवशिष्यते. चि योग तवत्, तवत् इति पुनः कृत्प्रत्यय अस्ति, अर्धातुकप्रत्यय अस्ति. अत्र पुनः ककार ईशान्य इति कृत्वा नित्यचैत्येन गुणनिषेधः, निषेधः. तावत् इडागमः पश्यामः चेत् तत्र त इति वल् प्रत्याहारे अस्ति, अतः षेड् वलादि इत्यनेन इडागमस्य प्रसक्तिः. एड् वशीकृति इत्यनेनापि इडागमस्य प्रसक्ति, परन्तु चि इति अनेट् अस्ति, अतः इडागमः न भवति. अतः केवलं वर्णमेलनं चित्तवत्, तत्र चित्तवान् चित्तवती चित्तवत् इति भवति उप.
उत्तमम्. तदेव चितवत् प्रातिपदिकमस्ति, त्रिषु लिङ्गेषु त्रिषु वचनेषु सप्तसु विभक्तिषु रूपाणि निर्मातुं शक्नुमः. चितवत् प्रातिपदिकं, पुंलिङ्गे चितवान्, स्त्रीलिङ्गे चितवती, नपुंसकलिङ्गे चितवत्. नपुंसकलिङ्गे कथं रूपाणि भवन्ति? चितवत्, चितवती, चितवन्ति, एवं रूपाणि भवन्ति. चितवत्, चितवती, चितवन्ति. पुंलिङ्गे चितवान्, चितवन्तौ, चितवन्तः, चितवन्तं, चितवन्तौ, चितवतः, एवं पुंलिङ्गरूपाणि भवन्ति. स्त्रीलिङ्गे चितवती, चितवत्यौ, चितवत्यः, चितवतीं, चितवत्यौ, चितवतीः, इत्युक्ते नदीशब्दवत् रूपाणि भवन्ति. एवं चितवत् इति प्रातिपदिकं स्वीकृत्य सुबन्तरूपाणि साधयितुं शक्नुमः. क्तवत् प्रत्ययः अपि निष्ठासंज्ञकप्रत्ययः. क्ता क्तवतु निष्ठा इति सूत्रेण क्तवत् प्रत्ययः निष्ठासंज्ञकप्रत्ययः. यथा मया पूर्वम् उक्तं, निष्ठासंज्ञाम् उपयुज्य व्याकरणे कानिचन सूत्राणि सन्ति. बहवः संज्ञाः सन्ति, नदी इति एका संज्ञा अस्ति, एवमेव अत्र निष्ठा इति अपि एका संज्ञा. निष्ठा इति सूत्रं संज्ञासूत्रम् अस्ति. निष्ठा इति एकम् अन्यत् सूत्रम् अस्ति, तत् सूत्रं संज्ञासूत्रं. किन्तु क्ता क्तवतु निष्ठा इति सूत्रेण क्तवतु प्रत्ययः सर्वेभ्यः धातुभ्यः विहितः भवति. अपि च क्तवतु प्रत्ययः कर्तृर्धकप्रत्ययः, कर्तारं सूचयति. वाक्येषु बालकः पुष्पाणि चितवान् इत्यत्र बालकः चितवान् द्वयोर्मध्ये सम्बन्धः कः इति प्रश्ने सति चितवान् इति बालकस्य विशेषणं भवति, कर्तृपदस्य विशेषणं भवति क्तवत् रूपम्. अतः क्तवत् प्रत्ययः कर्त्रर्धकप्रत्ययः. अग्रे चितिः इति रूपं साधनीयं. क्तिन् प्रत्ययान्तरूपं चितिः इति भवति. महोदय भवानेव वदतु चितिः.
किं प्रत्ययः तत्र ककारस्य स्थाने भवति लशक् प्रत्ययेन ति इति अवशिष्यते. तत्र ईडागमस्य पुनः धातु अनीट् इति कृत्वा तत्र ईडागमस्य प्रसक्ति, यतोहि ति इति ईडागम, परन्तु तत्र ईडागमः न भवति, परन्तु ति तु अत्र तरकसि सूत्रमस्ति, अत्र ईडागमः न भवति, गुणः अपि न भवति. अतः केवलं वर्णमेलनम् अत्र चिति इति रूपं भवति. चिति इति रूपं चितिः इति कथं भवति महोदय? अहं न जानामि. चिति इति भवति,
चिति इति प्रातिपदिकम् अस्ति, किन्तु स्त्रीलिङ्गपदं भवति. स्त्रियां क्तिन् इति सूत्रेण क्तिन् प्रत्ययान्तपदानि स्त्रीलिङ्गपदानि भवन्ति. चिति इति प्रातिपदिकं, किन्तु प्रथमाविभक्ति एकवचनरूपं चितिः. सुबन्तप्रक्रिया अस्ति. मतिशब्दवत् रूपाणि वक्तव्यानि. अपि च महोदयेन सरलतया उक्तमस्ति, सर्वम् उक्तमस्ति. क्तिन् प्रत्ययः स्त्रियां क्तिन् इति सूत्रेण धातुभ्यः विहितः भवति. क्तिन् इत्यस्य अनुबन्धलोपानन्तरं ति अवशिष्यते. प्रत्ययः तकारादिप्रत्ययः. तकारः वलादिः, वशादिः नास्ति. वशादिः नास्ति, वलादिः अस्ति इत्यतः ईडागमः भवति वा इति प्रश्नः उदेति. किन्तु तत्र एकम् अन्यत् सूत्रमपि अस्ति. ति तु त्र त थ सि सु सरकसेषु च इति सूत्रमस्ति. इत्युक्ते कृत् प्रत्ययस्य अन्ते ति तु त्र त थ सि सु सर क एते वर्णाः प्रत्ययस्य आदौ अस्ति चेत् ते प्रत्ययाः अनिटः भवन्ति. ते कृत् प्रत्ययाः अनिटः भवन्ति इति विशिष्टसूत्रेण उच्यते. तस्मिन् सूत्रे दश कृत् प्रत्ययाः प्रोक्ताः. तेषां दशानां कृत् प्रत्ययानां प्रसङ्गे यद्यपि ते वर्णाः वलादिवर्णाः अपि च वशादिः न सन्ति, तथापि अनेन विशिष्टसूत्रेण तेषु प्रत्ययेषु परेषु इडागमः न भवति इति विषयः. तेषु दशसु प्रत्ययेषु क्तिन् प्रत्ययः अन्यतमः. क्तिन् इत्यत्र तकारः वलादिः वशादिः नास्ति, तथापि तत्र इडागम आनुकूल्यं नास्ति, सः प्रत्ययः अनिटेव. अत्र चितिः इति रूपमेव सिद्ध्यति, तत्र इडागमः न भवति. चितिः, गतिः, मतिः, भूतिः अथवा विभूतिः इत्यादिषु इडागमः न दृश्यते. क्तिन् प्रत्ययः अनिट् प्रत्ययः. तदर्थम् इदं विशिष्टं सूत्रं स्मर्तव्यम्. चितिः इति क्तिन् प्रत्ययान्तरूपम् अस्ति. सत्यभामा भगिनी अनियर् प्रत्ययान्तरूपं वदतु.
आं भगिनि, हि इति धातुः निगन्धधातुः अस्ति. अनियर् प्रत्ययः आर्थधातुकप्रत्ययः. यतोहि तिङ् अपि नास्ति, चित् अपि नास्ति. अयं प्रत्ययः आर्थधातुकप्रत्ययः, अतः आर्थधातुक धातुकप्रक्रिया. अपि च अनियर् इति प्रत्ययः कित् अपि नास्ति, कित् ङित् 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 भिन्नः प्रत्ययः. अनियर् इत्यत्र अन्तिम रेफः यद्वर्तते तस्य हलन्त्यम् इति सूत्रेण चित्संज्ञा भूत्वा लोपः भवति. इदानीम् अनि ची योगः अनिया इति अस्ति. अत्र सार्वधातुक अर्धधातुकयोः गुणः इत्यनेन गुणकार्यस्य प्रसक्तिः.
प्रक्रिया अर्धधातुकप्रक्रियाः. वदतु.
प्रथमसोपाने इडागमचिन्तनं करणीयम्. अतः अनियर् प्रत्यय चि इति धातुः उपदाशावस्थायाम् एकाचि धातुः अस्ति. अतः अत्र इडानुकूलता नास्ति. अनियर् प्रत्ययः अपि अचन् अचु अजाति अस्ति. अतः तत्रापि इडागमः नास्ति. अनिट् अस्ति. अनिट् प्रत्ययः अपि अस्ति. अतः इडागमयोग्यता अत्र नास्ति. इदानीं चीयोगः अनिया इति स्थितिः. तत्र सार्वधातुकार्थधातुकयोः गुणः इत्यनेन गुणकार्यं भवति. चेयोगः अनिया इति भवति. इदानीम् एकारस्य स्थाने एकारस्य अनन्तरम् अचुवर्णः अकारः अस्ति. अतः इदानीं याण्डवान्दस्य सन्धि भूत्वा अयादेशः भवति. च यो च योगः ऐ योगः आयोगः आ अनीय इति अस्ति. अतः वर्णमेलनं भूत्वा चयनीया इति रूपम्.
उत्तमम्. अनियर् प्रत्ययः आर्धधातुकप्रत्ययः. तिंशित् नास्ति. आर्धधातुकसामान्यप्रत्ययः इत्युक्ते आर्धधातुक कित् नित् णित् नित् भिन्नः. धातुः एव अत्र अङ्गमस्ति. प्रत्ययात् पूर्वं धातुः एव अङ्गमस्ति. ची इति इगन्तम् अङ्गमस्ति. तस्मात् परम् आर्धधातुक कित् नित् णित् नित् भिन्नप्रत्ययः अस्ति. इत्यतः सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं भूत्वा ची चे भवति. सन्धिकार्यं भूत्वा वर्णमेलनेन चयनीय इति प्रातिपदिकमस्ति. चयनीय इति प्रातिपदिकं. किन्तु तस्य रूपाणि त्रिषु लिङ्गेषु सप्तसु विभक्तिषु सन्ति. एकं वाक्यं वदतु.
इत्युक्ते सेलेक्ट् इति अर्थः भवति वा?
उत्तमं. यदा वयं परीक्षां लिखामः तत्र परीक्षायां सूचना दीयते खलु. मल्टिपल् चाय्स् अस्ति चेत् चयनीयम्
उत्तरस्य चयनं इत्युक्ते अत्र उत्तम उत्तरस्य प्रश्नानां कृते सम्यक् उत्तरस्य उत्तरं चयनीयम् इति कर्तव्यम् इति अपि वक्तव्यं वा?
चयनीयं. समीचीनं वाक्यं वदामि. प्रदत्तेषु विकल्पेषु मल्टिपल् चाय्स् इति वदामः खलु, तत्र प्रदत्तेषु विकल्पेषु एकं रूपं चयनीयम्, एकं समुचितम् उत्तरं चयनीयम्, अधोनिर्दिष्टानां प्रश्नानां योग्यम् उत्तरं चयनीयम् इत्यादीनि वाक्यानि परिचितानि एव. प्रश्नपत्रेषु ईदृशानि वाक्यानि द्रष्टुं शक्नुमः. प्रदत्तेषु विकल्पेषु एकं समुचितम् उत्तरं चयनीयम् अथवा इष्टतमं वस्तु चयनीयम् इति वाक्यमपि साधु. वस्तु इति नपुंसकलिङ्गपदम्. इष्टतमं वस्तु चयनीयम् इत्यादीनि वाक्यानि परिचितानि एव अस्माकं कृते. परीक्षासु एतादृशी सूचना दीयते. चयनं करोतु इति अर्थः खलु. विध्यर्थे कर्मण्यर्थे अनियर् प्रत्ययः विहितः भवति. कर्तरिप्रयोगे वक्तुमिच्छामश्चेत् तत्र विधिलिङ्गकारं प्रयुज्य वाक्यं रचयामः. कर्मण्यर्थे अनियर् प्रत्ययः अथवा तव्यत् प्रत्ययः. किन्तु कर्तरिप्रयोगे वाक्यं वक्तुमिच्छामश्चेत् तत्र विधिलिङ्गप्रयोगः भवति. विधिलिङ्ग् एव तस्य समानार्थकप्रयोगः. तव्यत् रूपं वदतु.
तव्यत् अत्र चीयोकः तव्यत् इति अस्ति. तत्र ची इति प्रत्ययः आर्धधातुः प्रत्ययः यतोहि तव्यत् इति प्रत्ययः तिङ् अपि नास्ति चित् अपि नास्ति अतः आर्धधातुः प्रत्ययः इति कृत्वा आर्धधातुः प्रक्रिया. तत्र तव्यत् तव्य इति अन्तिमतकारस्य इत्संज्ञा भूत्व हलन्त्यं सूत्रेण इत्संज्ञा भूत्व लोपः भवति. तव्य इति अवशिष्यते. तव्य इति प्रत्ययः इति आर्थधातुकप्रत्ययः तव्यत् कित् कित् नित् नित् भिन्नप्रत्ययः सामान्यप्रत्ययः. अतः इदानीम् इडाकमचिन्तनं करणीयम्. तकारः वल् प्रत्याहारस्य वर्णः अस्ति अपि च वश् प्रत्याहारे तद् नास्ति इति कृत्वा तत् इदनुकूलप्रत्ययः अस्ति. छी इति धातु इदनुकूलः नास्ति इति कृत्वा अत्र इदाकमः न भवति. छी चे परन्तु अत्र गुणकार्यं भवति सार्वधातुक अर्थधातुकयोः इति सूत्रेण चेतव्य इति रूपं भवति.
चेतव्य इति प्रातिपदिकं भवति. उत्तमम्. अनियर् प्रत्ययस्य प्रसङ्गे अपि विधिसूत्रमस्ति तव्यत्तव्यानियरः इति विधिसूत्रेण अनियर् प्रत्ययस्य विधानं भवति. तव्यत् प्रत्ययस्य विधानमपि भवति. तव्यत्तव्यानियरः इति विधिसूत्रेण तव्यत् प्रत्ययः तव्यप्रत्ययः अनियर् प्रत्ययः एते त्रयः कृत् प्रत्ययाः सर्वेभ्यः धातुभ्यः विहिताः भवन्ति. चेतव्य इति प्रातिपदिकम् अस्ति. अयं प्रत्ययः आर्धधातुक कित् नित् णित् नित् भिन्नः आर्धधातुकसामान्यप्रत्ययः. इगन्तमङ्गमस्ति ची इति. अतः गुणकार्यं भूत्वा ची चे भवति. पश्चात् केवलं वर्णमेलनं चेतव्यं. भगिनी एकवारम् एकं वाक्यं वदतु. चेतव्यं रूपम् उपयुज्य वदतु.
ग्रन्थालयतः पुस्तकानि चेतव्यानि.
ग्रन्थालयतः पुस्तकानि चेतव्यानि. एवमेव रिक्तस्थाने उचितं रूपं चेतव्यं. चेतव्यं चयनीयं. द्वयोः अर्थः समानः खलु. पुटस्य शीर्षकं कथं चेतव्यम् इति प्रश्नः. अन्तिमं रूपमस्ति ल्युडन्तरूपं. सुजाता भगिनी ल्युडन्तरूपं साधयतु ची धातुतः.
प्रत्ययः लुट् लुट् अस्ति. आर्धधातुकं शेषः इत्यनेन आर्धधातुक प्रत्ययः भवति. आर्धधातुकं कित् नित् 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 भिन्नः प्रत्ययः अस्ति. कृदतिङ् इत्यनेन कृत् प्रत्ययः भवति. चीयोगः लुट् लुट् च इत्यनेन लुट् प्रत्यय विधीयते. लुट् प्रत्ययस्य लकारः लशक्वतदिते इत्यनेन इत्संज्ञा भवति. टकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा भवति. यु एव अवशिष्यते. चीयोगः यु आर्धधातुकं शेषः कृत्प्रत्ययः अस्ति. आर्धधातुकसेड् वलादेः इत्यनेन वलादिः नास्ति. प्रत्ययः अनिट् भवति.
कः वर्णः वलादिः नास्ति?
यु 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 स्थाने युवर्णाकौ इत्यनेन अन आदेशः भवति.
अकारः वलादिः नास्ति. वल् प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि सन्ति. स्वरवर्णाः वलादिवर्णाः न सन्ति. अकारः वलादिः नास्ति. यु स्वीकुर्मः चेत् अपि यकारः वलादिः नास्ति. अन आदेशानन्तरम् एव द्रष्टव्यम् इति अहमपि चिन्तयामि. वदतु.
युवोर्नाकौ इत्यनेन चीयुगः अनाभव स्थाने अन आदेशः भवति. चीयोगः अन अर्ध तिङ्क्षित् न सार्वधातुक अर्धधातुकयोः इच्छनेन ची इगन्तमङ्गम् अस्ति, इगन्त अङ्गस्य गुणः भवति ई ये भवति। चे योगः अना एचो यवः इच्छनेन अयादेशः भवति, चया चायोगः अयायोगः अना भवति। तत् अवृकुच्चिक् कार्यं न भवति, वर्णमेलनमेव चयना भवति।
तत्र इतोपि किमपि कार्यं नास्ति, वदतु।
वर्णमेलनमेव चयना प्रातिपदिकं भवति।
अस्तु, चयना प्रातिपदिकं सिद्ध्यति, उत्तमम्। ल्युट्यसूत्रेण ल्युडन्तपदानि नपुंसकलिङ्गपदानि भवन्ति, अपि च अना आदेशात् परमेव प्रत्ययस्य आदिमवर्णः द्रष्टव्यः इति वदामश्चेत् तत्र युवोरनाकौ सूत्रेण युस्थाने अना आदेशः भवति। युवोरनाकौ इति सूत्रस्य प्रसङ्गे यथासङ्ख्यमनुदेशः समानाम् इति परिभाषासूत्रेण क्रमेण आदेशौ भवतः इति वदामः। द्विवचने वक्तव्यं, तत्र द्वौ स्थानिनौ स्तः, द्वौ आदेशौ प्रोक्तौ, द्वौ स्थानिनः स्तः, द्वौ आदेशौ भवतः, यथासङ्ख्यमनुदेशः समानाम् इति परिभाषासूत्रेण तौ द्वौ आदेशौ क्रमेण भवतः, इत्युक्ते युस्थाने अन उस्थाने अक, द्वयोः प्रसङ्गे द्विवचने वक्तव्यम्। साधु, एतावत्पर्यन्तं ची धातोः रूपाणि साधितवन्तः। तव्यर्प्रत्ययस्य प्रयोगः, अनियर्प्रत्ययस्य प्रयोगः कर्मणि प्रयोगे भवति, कर्मपदस्य विशेषणं भवति, भाषा पठनीया, कर्तृपदस्य तृतीयाविभक्तिः भवति, अस्माभिः पठनीया, कर्मणि प्रयोगे कर्तृपदस्य तृतीयाविभक्तिः, कर्मपदस्य प्रथमाविभक्तिः, त्रीणि एकम् एकं कर्तृकरणयोः तृतीया इति सूत्रम्। संस्कृतभाषायां सर्वत्र यत्र यत्र इत्संज्ञा कृता दृश्यते तत्र प्रयोजनमस्ति। तव्य इत्यस्मिन् प्रसङ्गे इत्संज्ञा नास्ति, तस्य प्रयोजनं नास्ति, किन्तु सः प्रत्ययः भिन्नः इति अवगन्तव्यम्। इदानीम् अत्र स्थगयामः। अग्रिमे सप्ताहे गै धातोः प्रसङ्गे अपि च दा धातोः प्रसङ्गे चिन्तनं कुर्वन्तु। गै धातुः भुवादिगणीयधातुः, अतः चिन्तनं सरलमेव, किन्तु दा धातोः प्रसङ्गे कानिचन नूतनानि सूत्राणि ज्ञातव्यानि। किमर्थं चेत् दा धातुः जुहोत्यादिगणे अस्ति खलु, जुहोत्यादिगणे द्वित्वं भवति, द्वित्वप्रसङ्गे अभ्यासकार्यं ज्ञातव्यं खलु, अतः दा धातोः प्रसङ्गे नूतनानि सूत्राणि अपेक्षितानि। किन्तु गै धातोः प्रसङ्गे नूतनानि सूत्राणि सार्वधातुकप्रक्रियायाम् अनावश्यकं, किन्तु आर्धधातुकप्रक्रियायां गै धातोः प्रसङ्गे अपि नूतनानि सूत्राणि ज्ञातव्यानि। गै धातोः रूपं गीत्वा भवति, गै धातोः कृतान्तरूपं गीतं भवति, धातुः गै अस्ति, तदर्थमपि आदेश उपदेशे शिति घुमास्था गापा जहाति साम हलि इत्यादीनि सूत्राणि गै धातोः प्रसङ्गे नूतनानि सूत्राणि अपेक्षितानि आर्धधातुककृदन्तरूपाणि साधयितुम्। सार्वधातुकप्रक्रियायां तत्र क्लेशः नास्ति। गै धातुः एजन्तधातुः, एच् प्रत्याहारे ऐकारः अस्ति, इगन्तः नास्ति गै धातुः, अतः सार्वधातुकप्रक्रियायां सारल्यमस्ति, किन्तु गै धातुतः आर्धधातुककृदन्तरूपाणि साधयितुं नूतनानि सूत्राणि अपेक्षितानि। दा धातोः प्रसङ्गे गै धातोः प्रसङ्गे रूपाणि कथं साधनीयानि इति एकवारं चिन्तयन्तु। आगामिन्यां कक्षायां वयं सर्वे मिलित्वा चिन्तनं करिष्यामः। इदानीम् अत्र स्थगयामः। सर्वेषां धन्यवादाः।
धन्यवादः भगिनि, मिलामः।
धन्यवादः भगिनि, नमस्कारः।